सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
अद्य वरुणसूक्तं पठामः। धीरात्वस्य महिना इति अपि आरम्भः, बहूनि सूक्तानि सन्ति, अतः किं सूक्तम् इति एकवारं तद् निरूपीकरणम् अस्तु। धीरात्वस्य इति अष्टर्चं षोडशं सूक्तं वसिष्ठस्य आर्षं त्रैष्टुभं वरुणदेवत्यम् इत्यस्ति। नाम अष्टऋचः सन्ति, अष्टमन्त्राः सन्ति, अनन्तरं वसिष्ठः अस्य ऋषिः, मन्त्रद्रष्टा वसिष्ठः। किं छन्दः? त्रिष्टु, त्रिष्टु इति छन्दः। देवता तु वरुणः। वैशिष्ट्यं नाम एतत् सप्तममण्डलमस्ति, सप्तममण्डलस्य सूक्तमिदं वरुणस्य विषये, तदपि वसिष्ठेन दृष्टः मन्त्रः एषः, मन्त्रसमूहः एषः। सप्तममण्डलमेव ऋग्वेदस्य वसिष्ठस्य मण्डलमिति वदन्ति, नाम अनेके मन्त्राः वसिष्ठेन दृष्टाः एव अत्र सङ्कलिताः सन्ति। ऋग्वेदस्य प्राचीनतमेषु भागेषु एषः अन्यतमः इति विदुषाम् अभिप्रायः, यतोहि नाम ऋग्वेदसंहिता नाम एकस्मिन् दिने वा अथवा एकस्मिन् मासे वा रचिता अथवा दृष्टा सङ्कलिता इति न, बहूनां सहस्रवर्षाणां सङ्ग्रहः एषः। अतः तस्य एतादृशस्य सङ्ग्रहस्य प्राचीनभागेषु अयम् अन्यतमः इति। वसिष्ठः अपि अत्यन्तं प्राचीनः ऋषिः इति बहु प्रसिद्धिः अस्ति, बहुत्र वेदे बहुत्र अस्ति, एवमेव अग्रे पुराणमहाभारतादिषु अपि वसिष्ठस्य विषये बहु विशिष्टं विवरणम् उपलभ्यते। एवम् अत्यन्तं वेदान्तस्य प्रवर्तकत्वेनापि वसिष्ठः एव परिगण्यते, यतोहि तत्र आरम्भे व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकरकर्षम् इति गुरुपरम्परायां प्रथमं स्थानं तत्र वसिष्ठस्यैव, नारायणस्य अनन्तरं वसिष्ठस्य इदं विशिष्टं स्थानम् अस्माभिः लक्ष्यते।
नारदस्य पुत्रः
तद् न एषः तत्र मित्रावरुणयोः पुत्रः इत्येवं काचित् कथा आगच्छति, अतः पुनः वसिष्ठः केवलं न, वसिष्ठस्य पुत्राः अपि मन्त्रद्रष्टारः एव, तेषामपि मन्त्राः अत्र सङ्कलिताः दृश्यन्ते। एवम् अतः फ्यामिलि बुक्स् इति वदन्ति, तेषाम् आङ्ग्लदृष्ट्या तत्र सङ्ग्रहम् एतत् अनुवादादिकम् एतस्य विषये विवेचनं ये कृतवन्तः, फ्यामिलि बुक् आफ़् वसिष्ठः इति, नाम तस्य कुटुम्ब अनुयायिनः सर्वेपि अत्र मन्त्रं कृतवन्तः, मन्त्राणां सङ्ग्रहं कृतवन्तः, मन्त्राणां योगदानं कृतवन्तः इति एवम् अत्र अस्ति। अतः एषः अत्र सामान्यतः अस्य सूक्तस्य अवलोकनेन ज्ञायते अत्र यः वसिष्ठः अस्ति सः वा साक्षात् वसिष्ठः वा तस्य पुत्रो वा कश्चित् किञ्चित् वरुणस्य कृपां याचते, किञ्चित् दुःखपीडितः इव लक्ष्यते, किञ्चित् स्व पाप स्वेन किञ्चित् पापं कृतं तेन कारणेन मम विषये वरुणः कुपितः, तादृशकोपः तस्य शान्तः भवतु इति दृष्ट्या अत्र मन्त्राः तया सः एव ध्वनिः अस्ति एतेषु मन्त्रेषु एवमस्ति। इदानीं प्रथमं मन्त्रं पश्यामः। धीरात्वस्य महिना जनूंषि यस्तस्तम्भ रोदसी चि दुर्वी प्रनाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं प्रपथच्च भूम इत्यस्ति। अस्य धीरात्वस्य इत्यत्र अस्य इति पदमस्ति, अस्य वरुणस्य, अस्य नाम वरुणस्य, वरुणः यः देवः अस्ति तस्य महिना जनूंषि इत्यस्ति, जनूंषि अस्य जनूंषि, अस्य वरुणस्य जनूंषि नाम जन्मानि महिना महिम्ना महिना शब्दस्य महिम्ना, तत्र महिमा वर्तते, अस्य जन्मनाम अत्यन्तं महिमा वर्तते, तस्य जन्म एव, तस्य अवस्थितिः एव बहु महत्त्वयुक्ता युक्तमस्ति, तस्य जन्म धीरा तु इति पदस्य, तु इति पदस्य कः अर्थः, क्षिप्रं, न बहु शीघ्रम् इति, अस्य जनुंषि महिना तु क्षिप्रं शीघ्रं धीराणि धैर्यवन्ति भवन्ति, अस्य जनुंषि महिना तु धीरा, तन्नाम एतस्य एषः वरुणः यज्जन्म प्राप्तवान्, यानि च कार्याणि कृतवान् तानि महत्त्वयुक्तानि, अनन्तरं तानि यानि कार्याणि सः कृतवान् अत्यन्तं पराक्रमयुक्तानि। विशिष्य अत्र किम् उच्यते इति चेत्, वसिष्ठः इन्द्रं स्तौति, वरुणं स्तौति, अत्यन्तं पराक्रमी इन्द्रः इति पूर्वसूक्ते अस्माभिः दृष्टम्, यथा इन्द्रः पराक्रमी एवमेव वरुणः अपि अत्यन्तं पराक्रमी इति वसिष्ठः निरूपयति अत्र, यथा सः भूलोकं निर्मितवान्, अन्तरिक्षं निर्मितवान् इत्यादि सर्वं विवरणम् आगच्छति, इन्द्रस्य समानम् अत्रापि अस्ति, तदेव अस्ति तत्र अस्मिन्नपि मन्त्रे, धीरात्वस्य महिना जनुंषि, अस्य वरुणस्य इत्थं वैशिष्ट्यं वर्तते, यस्तस्तम्भ रोदसी चिदुर्वी, यः वरुणः उर्वी, उर्वी शब्दस्य विस्तीर्णे, रोदसी चित्, रोदसी चित् इत्यस्ति, रोदसी चित् द्यावा पृथिव्यौ अपि, एषः किं कृतवान्, एषः वरुणः महत्त्वयुक्तः धैर्यवांश्च, कुतः इति चेत् सः विस्तीर्णे रोदसी, अत्यन्तं विशाले द्यावा पृथिव्यौ, नाम द्विलोकं पृथिवीलोकम् एतद्वयमपि अत्यन्तं विस्तीर्णम् अस्ति, किं कृतवान्, द्वितस्तम्भ विविधं स्तब्धे स्वकीये स्थाने स्थिते अकरोत्, सः किं कृतवान्, द्विलोकं तस्य स्थाने निर्माय स्थापितवान्, भूलोकं तस्य स्थाने निर्माय तस्य रक्षणं स्थापनं धैर्यं च कल्पितवान्, एतदेव तस्य महत्त्वम्, एतदेव तस्य धैर्यं, लोकद्वयस्य सः किं कृतवान्, स्तम्भनं कृतवान्, स्थैर्यं कल्पितवान्, अतः अत्यन्तं विशिष्टः वरुणः। अस्तु, एतावदेव कृतवान् वा, अन्यत् किमपि कृतवान् वा वरुणः, प्रणाकमृष्वं नुनुदे बृहन्तम् इति अग्रिम पादं पश्यामः, यश्च यः वरुणः किं कृतवान्, बृहन्तं, बृहन्तम् इति पदमस्ति महान्तम्, अत्यन्तं महत्त्वयुक्तं नाकं, नाकं नाकशब्दस्य आदित्यम् इति, नाकशब्दः स्वर्गवाचि, तथापि तत्र सुवर्लोकस्य अधिष्ठातृदेवता आदित्यः, अतः नाकशब्देन अत्र आदित्यः स्वीकरणीयः इति भाष्ये कृतः अभिप्रायः, अतः प्रनाकं महान्तं नाकम् आदित्यं, पुनश्च किं जातं, पूर्वत्र द्यावा पृथिव्यौ इति तेन उक्तं, द्युलोकः तेन निर्मितः इत्युक्तं, पुनः नाकम् इति चेत् स्वर्गलोकः द्युलोकः इति उच्यते चेत् पुनरुक्तिः भवति, अतः न केवलं स्वर्गलोकं निर्मितवान्, स्वर्गलोकस्य अधिष्ठातृभूतम् आदित्यमपि किं कृतवान् अग्रे पश्यामः, आदित्यं तथा च नक्षत्रं, नाकं नक्षत्रम् इति पदं तत्रैव अस्ति, मन्त्रे अस्ति, अतः सः नाकं नक्षत्रञ्च किं कृतवान्, ऋष्वं, प्रनाकं ऋष्वम् इति पदमस्ति, ऋष्वं दर्शनीयं, ओ दर्शनयोग्यं कृतवान् इति, आदित्यः यथा दर्शनयोग्यः सुन्दरः, अनन्तरं नक्षत्राणि च यथा दर्शनयोग्यानि, इमानि सुन्दराणि सन्ति इति तेषां विषये प्रशंसां वयं कुर्मः किल, यः आदित्यः उदेति यश्च अस्तङ्गच्छति अत्यन्तं दर्शनयोग्यः, एवमेव रात्रौ नक्षत्राणि तत्र प्रकाशन्ते आकाशे, अतः तान्यपि दर्शनीयानि इति, ऋष्वं दर्शनीयं,
द्विता द्विविधम् इत्यर्थः नाम एतत् द्विविधं कृतवान् प्रनुनुदे प्रेरयति स्म यथा आदित्यः यथा च नक्षत्रं ऋष्वं भवति दर्शनीयं भवति तथा एवं द्विविधं प्रेरणं कृतवान् अतः केवलं द्युलोकस्य भूलोकस्य निर्माणं तावत् न कृतवान् तत्र आदित्यं नक्षत्राणि च एतत् एवं द्विविधम् अपि तयोः दर्शनीयतां वर्धितवान् इति तदेव किञ्चित् विवृणोति भाष्यकारः अहनि सूर्यं दर्शनीयं प्रेरयति रात्रौ नक्षत्रं तथा इति द्विप्रकारः दिवासमये सूर्यः दर्शनयोग्यः भवतु रात्रिकाले च नक्षत्राणि दर्शनयोग्यानि भवन्तु इति तस्य प्रेरणया एव दिवासमये सूर्यः दृश्यते तस्य प्रेरणया एव रात्रिसमये नक्षत्राणि दृश्यन्ते इति एवम् अनन्तरं तत्र भूम इति पदमस्ति प्रणाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पदद्वयमेव अवशिष्टमस्ति अस्मिन् मन्त्रे भूम प्रपथच्च इति एतद्वयम् अवशिष्टं भूम भूमिं च यः पप्रथत् पप्रथच्च इति पप्रथत् इत्यस्ति अप्रथयत् विस्तारितवान् इति अतः भूमिमपि सः विस्तारितवान् भूमेः विस्तरणे अपि सः एव हेतुभूतः इति अतः आरम्भे वरुणस्य महत्त्वं महिमा धैर्यम् इत्यादि सर्वम् उक्तं कुत्र कुत्र धैर्यं तस्य प्रकाशितं द्युलोकस्य भूलोकस्य स्तम्भनं कृतवान् स्थैर्यं कल्पितवान् एकं द्वितीयं सः आदित्यं नक्षत्रं च दर्शनयोग्यं कृतवान् आदित्यं दिवासमये दर्शनयोग्यं कृतवान् नक्षत्राणि रात्रिसमये दर्शनयोग्यं कृतवान् अनन्तरं भूमेः विस्तारमपि सः कल्पितवान् एवञ्च सः अत्यन्तं महान् इति प्रशंसामात्रम् अत्र एवं प्रशंसारूपेण वरुणस्य प्रशंसनं करोति वसिष्ठः प्रथमे मन्त्रे द्वितीयः मन्त्रः अग्रे उत स्वया तन्वा संवदे तत्कदान्वन्तर्वरुणे भुवानि किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभिख्यम् इति इदानीं तादृशमहत्त्वयुक्तः अस्ति वरुणः अहं कदा वा वरुणं पश्येयं कदा मम वरुणस्य साक्षात्कारः भवति इति विषये चिन्तयति एषः ऋषिः तत् प्रकटयति तदेव वदति भाष्यकारः वरुणं शीघ्रं दिदृक्षमाणः ऋषिः अनया वितर्कयति नाम चिन्तयति शीघ्रं द्रष्टुमिच्छति वरुणम् एषः ऋषिः अतः अनेन मन्त्रेण दिदृक्षा नाम द्रष्टुमिच्छा द्रष्टुमिच्छति अतः सः तद्विषये चिन्तयति उत इति विचिकित्सायाम् उत इति चिन्तयति कदा कथम् इत्यादि तस्य चिन्तनम् उतशब्देन प्रकट्यते आर् इति सामान्यभाषायाम् एषा वैदिकीभाषा अतः भाष्ये यदस्ति तत् स्वीकरणीयं पूर्वं दृष्टवन्तः अश्मशब्दस्य न पाषाणखण्डः अपि तु मेघः इति एवम् अतः भाष्यकृते एव अत्र प्रमाणं भाष्यकारः यद्वदति तदेव स्वीकरणीयम् उत इति विचिकित्साय विचिकित्सा नाम सन्देहः प्रश्नः इत्यर्थः चिन्तयति उत पदेन तद् निर्दिष्टमस्ति उत किम् इत्यर्थः उत शब्दस्य किम् इत्यर्थः स्वया तन्वा इति पदमस्ति स्वीयेन आत्मीयेन शरीरेण संवदे सः चिन्तयति सः वदनं करोमि किम् अहं मया सह एव मम शरीरेण सह एव सम्भाषणं करोमि वा आहोस्वित् तत् आहोस्वित् इति पदम् अत्र नास्ति तत् इत्यस्ति उत स्वया तन्वा संवदे तत् इत्यस्ति अहं मया मम शरीरेण सह एव अहं सम्भाषणं करोमि वा उत तेन सह करोमि वा इति कदा तेन सह अहं सम्भाषणं करोमि तेन वरुणेन सह संवदे इति प्रश्नः द्विविधः प्रश्नः अनन्तरं कदान्वन्तर्वरुणे भुवानि एतद् बहु विशिष्टमस्ति किमस्ति कदा कस्मिन् काले नु खलु कदा खलु अहं वरुणे सः वरुणः देवः अस्ति किल तस्य अन्तः भुवानि तस्य अन्तर्भूते भवानि भुवानि इत्युक्ते भवानि लोट्लकार लोट्लकार उत्तमपुरुष प्रथम एकवचनं अहं कदा वरुणस्य चित्ते संलग्नो भवानि इति कदा वरुणः मम विषये ओ अहम् एतम् अनुगृह्णामि इति चिन्तयति तस्य अन्तः अहं कदा प्रविशामि इति तस्य चिन्तनं कदान् अन्तर्वरुणे भुवानि इति अनन्तरं किं मे हव्यमहृणानो जुषेत अपि च एतदेवं सः प्रश्नान् करोति चिन्तयति कदा वा मम भगवतः वरुणस्य अनुग्रहः भवति इति अस्माकमपि इदानीम् अनुग्रहः आवश्यकः वरुणस्य वृष्टिः एव नास्ति अतः अपि च मे इति पदमस्ति किं मे इत्यत्र मे पदं मदीयं हव्यं हव्यं नाम स्तोत्रम् अथवा हविः अहं वरुणाय हविः समर्पयामि परन्तु मदीयं हव्यं स्तोत्रम् अहृणानः अहृणानः अक्रुध्यन् क्रोधेन विना किं केन हेतुना जुषेत सेवेत इति नाम अहं वरुणाय हविः समर्पयामि परन्तु सः मम हविः स्वीकुर्यात् वा क्रोधेन विना मम हविस्वीकरणे तस्य किं कारणं स्यात् यदि अहं शुद्धः पापरहितः तर्हि मया हुतं हविः अथवा मया उक्तं स्तोत्रं सः कोपेन विना स्वीकुर्यात् अथवा शृणुयात् परन्तु यदि अहं पापयुक्तः तर्हि मम प्रार्थनया अपि प्रयोजनं नास्ति अतः अहं तादृशः वा अहं पापयुक्तः वा पापरहितः वा इति तस्य मानसिकचिन्तनं कदा मम भगवदनुग्रहः भवति इतोपि न जातं किल तर्हि मयि पापं स्याद्वा इत्यादि तत्र अग्रे आगच्छति तया भावनया इदं सः वदति मम हविः सः क्रोधेन विना स्वीकुर्यात् इत्यत्र किमपि कारणम् अस्ति वा इति सः चिन्तयति किं मे हव्यम् अहृणानः जुषेत किं मम स्तोत्रं कोपेन विना केन कारणेन सः जुषेत स्वीकुर्यात् इति कदा मृळीकं सुमना अभिख्यम् अन्तिम पादः सुमनाः शोभनमनस्कः सन् अहं कदा कस्मिन् काले मृळीकं नाम सुखयितारं वरुणम् अभिख्यम् अभिपश्येयम् कस्मिन् काले सुमनाः भूत्वा अहं न मम इदानीं मनसि आतङ्कः अस्ति वरुणं पश्यामि वा न वा इति मम बहु चिन्ता अस्ति अहं तु कदा तादृशचिन्ताविहीनः सन् सुमनाः भूत्वा शोभनमनसा युक्तः सन् मृळीकं मृडशब्दस्य सुखम् इत्यर्थः मृळीकः नाम यः सुखं ददाति सः मृळीकं द्वितीयाविभक्तिः अस्ति वरुणं कदा अभिख्यं कदा अहं साक्षात् कुर्याम् इति अतः सर्वत्रापि प्रश्नः एव अस्ति पूर्णतया प्रश्नः एव अहं मम शरीरेण सह एव सम्भाषणं करोमि वा उत अहं तेन सह सम्भाषणं करोमि वा इति प्रश्नः द्वितीयप्रश्नः कः कदा अहं वरुणस्य मनसि भवामि तस्य अनुग्रहपात्रतां प्राप्तुं कदा अहं तस्य अन्तः प्रविशामि इति अनन्तरं किं वरुणः मम स्तोत्रं कोपेन विना स्वीकरोति वा यदि स्वीकुर्यात् तर्हि तत्र किं कारणं स्यात् अनन्तरम् एतत् सर्वं यदा जातं तदा अहम् आतङ्केन विना वरुणस्य साक्षात्कारं प्राप्नुयाम् इत्यादि प्रश्नाः तस्य भक्तस्य मनसि अतः अत्र वदन्ति किल दशमशतमाने एव भक्तिमार्गः प्रसृतः सर्वत्र चैतन्यमहाप्रभुः अन्ये आळ्वार् नायन्मार् एते सर्वेपि प्रचारं कृतवन्तः इति तस्य मूलं वेदे एव अस्ति कश्चित् भक्तः कथं चिन्तयति इति अत्रैव तस्य बीजं वयम् अत्र द्रष्टुम् एतेनैव प्रेरिताः ते महान्तः सन्तः भक्तिमार्गं प्रचारितवन्तः इति भाति अग्रे अनन्तरं पूर्णतया भक्तस्य विलापः एव अत्र अस्ति अनन्तरं पृच्छेतदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छं समानमिन्मे कवयश्चिदाहुः अयं ह तुभ्यं वरुणो गृणीते एतदपि बहु आश्चर्यकर मन्त्रः अस्ति एषः अपि. किमस्ति, मम एतावदपि वरुणस्य कृपा न जाता. एतादृश आध्यात्मिकविषयेषु भगवत्कृपा मम किमर्थं न प्राप्ता इत्यादि विषयेषु कः प्रष्टव्यः इति चेत् सज्जनाः प्रष्टव्याः, ये साधुजनाः, ये पुण्यात्मानः, ते प्रष्टव्याः. तान् अहं पृष्टवान्, मम अनुग्रहः न जातः, ते किं कारणम् उक्तवन्तः? तदस्मिन् मन्त्रे अस्ति. पृच्छे, हे वरुण, तदेनः, एनः इति शब्दस्य पापम् इत्यर्थः. तदेनः पापं पृच्छे, किं तत् पापम् इति अहं त्वां पृच्छे, अहं पृच्छामि इति. वस्तुतः परस्मैपदी प्रयोगः, पृच्छति पृच्छतः पृच्छन्ति इति, परन्तु अत्र पृच्छे इति आत्मनेपदी प्रयोगः वैदिकः छान्दसः. अतः तदेनः पृच्छे, वरुण, हे वरुण, अहं किं पापं मम इति अहं पृच्छामि. किमर्थम्? अहं दिदृक्षु. पृच्छे तदेनो वरुण दिदृक्षु. किमर्थं मम एषः प्रश्नः इति चेत् अहं भवन्तं द्रष्टुमिच्छामि, साक्षात्कर्तुमिच्छामि. अतः अहं, परन्तु अहम् एतावदापि भवतः साक्षात्कारं न प्राप्तवान्, तत्र किं कारणम् इति अहं, तत् पापस्य कारणम् अहं पृच्छामि इति. अनन्तरं येन पापेन हेतुना त्वदीयैः पाशैः बद्धः अस्मि, पृष्टः सन् तत् पापं कथय. वरुणपाशः इति सर्वत्र प्रसिद्धमस्ति, यमस्य पाशः इव वरुणस्य पाशः इति. यः सत्यमार्गात् च्यवते तं वरुणः पश्यन् भवति, अनन्तरं सः स्वस्य पाशैः बध्नाति इति एतदस्ति. अतः अहं पाशैः बद्धः अस्मि, तेन कारणेन अहं भवन्तं, भवानेव मां बद्धवान् अस्ति. केन पापेन मां बद्धवान् अस्ति इति विषये अहं ज्ञातुमिच्छामि. अनन्तरम् उपो येमि चिकितुषो विपृच्छं. दिदृक्षूपो इत्यस्ति किल, तत्र पदच्छेदः दिदृक्षु उप उपो येमि इति विभागः अस्तु. चिकितुषो विपृच्छम् इति, अहं विपृच्छम्, अहं विविधं प्रष्टुं, विपृच्छम् इति शब्दस्य विविधं प्रष्टुं चिकितुषः विदुषः जनान् उपो येमि उपागाम्. इदानीं पापमस्ति मम, तेन कारणेन साक्षात्कारः न जातः इति तावत् ज्ञातं, तर्हि किं पापं स्यात्, किमर्थं मम दर्शनं न जातम् इत्येतदर्थं विविधं प्रष्टुम्, एतस्य किं किं कारणं स्यात् इति विपृच्छम्, अहं विविधं प्रष्टुं कुत्र गतवान्? चिकितुषः उपो एमि, ये पण्डिताः, ये विद्वांसः जनाः सन्ति, तेषां समीपे अहं गतवान् प्रष्टुम्. अस्तु,
चिकितुषः इत्युक्ते
विद्वांसः इत्यर्थः. चिकितुषः विदुषो जनान् इति द्वितीया विभक्तौ अस्ति तत्, अतः विदुषां समीपे अहं गतवान्. तर्हि किं जातं, ते किमुक्तवन्तः? समानमिन्मे कवयश्चिदाहुः, ते कवयश्चित् क्रान्तदर्शिनो जनाः, ते सर्वेपि क्रान्तदर्शिनः. क्रान्तशब्दस्य वयं पूर्वं चर्चां कृतवन्तः, विषनरीस् नाम दे नो बियाण्ड् बियाण्ड् द सीन्स्, किम् अस्ति इति ते जानन्ति. ते कवयश्चित् ते जनाः, कवयः, क्रान्तदर्शिनः किं कृतवन्तः? मे समानम् इन् मे कवयश्चित्, ते कवयः मे मह्यं समानमित् समानम् एकरूपमेव आहुः उत्तरं. सर्वान् बहून् पृष्टवान्, परन्तु तेषां सर्वेषामपि समानमेव उत्तरं. किं तदुत्तरं? यदाहुः तदाह. किं तदुत्तरमिति अन्तिमपादः अस्ति, अयं हतुभ्यं वरुणो गृणीते इति सर्वेपि उत्तरम् उक्तवन्तः. किं तदुत्तरं? हे स्तोतः, हे स्तोत्रकर्ता कर्तः, तुभ्यं, तुभ्यमिति पदं तत्र मन्त्रे अस्ति, तुभ्यं तव विषये, अयं वरुणः, एषः वरुणः यः भवता प्रार्थ्यते, यस्य साक्षात्कारार्थं प्रयत्नः क्रियते, क्रीणीते भवतः विषये सः कोपं करोति इति एव तेषाम् उत्तरं. सः भवतः विषये कुपितः अस्ति. तर्हि किं करणीयं? तत्र सः कोपं करोति इत्युक्तं, ओ कोपं करोति इति ज्ञात्वा किं करणीयम् इति चेत् तस्य अन्तिम तद् भाष्यवचनमस्ति, अतः क्रोधं परित्यज्य अस्मान् पाशेभ्यो मोचय इति प्रार्थनायाः फलं. ट्रान्स्लेशन् मध्ये तावदेव प्रयच्छन्ति. भाष्यकारः किं करोति, अनेन मन्त्रेण किं भक्तः प्राप्नुयात् इति चेत् वरुणस्य मनसि कोपः अस्ति इति ज्ञात्वा तत्र विरामं न प्राप्नुयात्. तर्हि तत्र इयं प्रार्थनापि अन्तः निहिता अस्ति यत् भवान् मम विषये कुपितः, कोपात् पाशात् मोचय इति प्रार्थनया अत्र स्थगनम् इति. अत एव भाष्यस्य अनुसरणम् इति बहुत्र पुनः पुनः कथयामि. अग्रे चतुर्थः मन्त्रः, किमाग आस वरुणज्येष्ठं यत् स्तोतारं जिघांससि सखायं, प्रतन्मे वोचो दुर्लभ स्वधावोव त्वानेन नमसा तुरयाम् इत्यस्ति. अग्रे किमाग आस वरुणज्येष्ठं, हे वरुण ज्येष्ठं नाम अधिकं, किम् आग आस कः अपराधः मया कृतः बभूव, एषः प्रथमः खण्डः. मम विषये भवान् कुपितः अस्ति इति तु ज्ञातं, तर्हि किं तत् पापं, महत् पापं किञ्चन मया कृतम् इति भाति, तर्हि कः सः अपराधः इति पृच्छति सः. यत् स्तोतारं जिघांससि सखाय, बहु सरलमस्ति अत्र मन्त्रपठनेनैव अर्थः अवगम्यते. अत्र यत् येन आगसा सखायं मित्रभूतं सन्तं स्तोतारं जिघांससि हन्तुमिच्छसि. जिघांससि नाम जिघांसा नाम हन्तुमिच्छा, जिघांसा इति भवति मारणं कर्तुम् इच्छति इति. अहं तु भवतः मित्रं, मित्रभूतः अहम् अस्मि, तादृशः अहं भवतः स्तोता, तस्य मारणं भवान् कर्तुम् इच्छति, किं तत् कारणम्? आगः, अम्हः, एनः, एतत् सर्वं पापवाचकं, पापस्यैव नानापदानि, परन्तु तेषां वैशिष्ट्यमस्ति, किञ्चित् विविच्य अग्रिमपाठे अहं वदामि. अम्हः, आगः, एनः इत्येवं त्रिविधविभागः अस्ति पापेषु एव तारतम्यभावेन. अस्य विवरणम् अग्रे पूर्वं पठितं, विस्मृतवान्. भेदः अस्ति इति तु ज्ञायते, किञ्चित् महापातकम् उपपातकम् इत्यादि अस्ति, तत् प्रकारेणैव भवति. अस्तु, एतत् स्पष्टं किल, अग्रे गच्छामः. हा,
वरुणस्य ज्येष्ठम् इति सम्बोधनं,
वरुणस्य ज्येष्ठं, ज्येष्ठम् आगः, महत् पापम् इत्यस्मिन् अर्थे, अधिकं पापम् इत्यर्थः. मया किम् अधिकं पापं कृतं येन भवतः विषये, भवान् मम विषये हननं कर्तुं मनः कृतवान् इति तत्र अस्ति. अनन्तरं हे दुर्लभ, इदानीं दुर्लभ इति पदमस्ति, विशिष्टं पदं दृश्यते, तथापि न लक्ष्यते. तृतीयपादे अस्ति, प्रतन्मे वोचो दुर्लभ स्वधावः इत्यस्ति. दुर्लभ, दुर्दभ इति पदमेव दुर्लभ इति तत्र वैदिकरूपेण प्रयुक्तमस्ति. अन्यैः बाधितुम् अशक्यः इति, दुर्लभ इति शब्दस्य, यः अन्यैः पीडयितुं न शक्यः, अत्यन्तं बलिष्ठः, सः दुर्लभ पदेन उच्यते. अन्यः यस्य हिंसां वा पीडां वा अधिकारं वा प्रदर्शयितुं न शक्नोति सः तादृशः दुर्लभ. यथा दुर्योधनः इति प्रयोगः अस्ति किल, यः अत्यन्तं कष्टेनैव योद्धुं शक्यः, तस्य पुरतः स्थातुं न शक्यते इत्यस्ति किल, एवमेव दुर्लभ इति प्रयोगः वरुणस्य. सः दुर्लभ, अत्यन्तम् उग्रः इत्यस्मिन् अर्थे अस्ति दुर्लभ. स्वधावः इत्यपि सम्बोधनं वरुणस्य, तेजस्विन् तेजोयुक्तः भवान् वरुण, पुनः भवान् अन्यैः बाधितुमपि अशक्यः, तादृशः भवान्. हे वरुण, तत् प्रतन्मे इत्यत्र तत् मे इत्यस्ति, तत् आगः, तत् पापं, महत् पापं किञ्चन अस्ति किल, मे मह्यं प्रवोचः, प्रब्रूहि, वद इति तदेव प्रार्थ्यते. अन्तिमपादः अवत्वानेन नमसा तुरय्याम् इति. तर्हि पापं किम् इति वदतु इत्यादि पृच्छति. तर्हि पापं किम् इति ज्ञात्वा किं करणीयम्? एवं सति तस्य प्रायश्चित्तं कृत्वा अवत्वानेन इत्यस्ति. अवत्वानेन इति त्वानेन इत्यस्य पदच्छेदः त्वा अनेन इति पदच्छेदः. अनेनाः येनः नाम पापम्, अनेनाः नाम पापरहितः. प्रायश्चित्तादिकं कृत्वा अहम् अनेनाः अपापः भूत्वा पापरहितः भूत्वा अनेनाः तुरः त्वरमाणः शीघ्रः अत्यन्तं त्वरया शीघ्रं नमसा नमस्कारेण त्वा त्वां वरुण त्वां यां प्राप्नुयाम् उपगच्छेयम् इति. अतः मम किं तद् आगः इति वदतु येन अहम् अनेनाः भूत्वा पापरहितः भूत्वा प्रायश्चित्तादिकं कृत्वा भवन्तं शीघ्रं प्राप्नुयाम् इति प्रार्थना चतुर्थे मन्त्रे. अथ पञ्चमः मन्त्रः. कानि कानि पापानि स्युः येन वरुणसाक्षात्कार अभावः मम जातः स्यात् इति अत्र अस्ति आवलिः. अवद्रुग्धानि पित्र्या सृजानो वया वयं चक्रमा तनूभिः अवराजन् पशुतृपं न तायुं सृजा वत्सन्न दाम्नो वसिष्ठम्. अत्र किञ्चित् तत्र विशिष्ट अस्मिन् मन्त्रे वा अग्रिममन्त्रे वा इति द्रष्ट अग्रिममन्त्रे अस्ति. अग्रिममन्त्रे किञ्चित् दुर्योधनः इव भवति वसिष्ठस्य वचः. तत् कथमिति पश्यामः. अस्मिन् मन्त्रे तावत् कानि कानि पापानि स्युः येन मम एवं भगवद्दर्शन अभावः जायते इति अत्र उच्यते. अवद्रुग्धानि पित्र्या सृज. हे वरुण पित्र्या पितृतः प्राप्तानि नः अस्मदीयानि दुग्धानि द्रोहान् बन्धनहेतुभूतान् अवसृज विमुञ्च इत्यस्ति. मन्दं पश्यामः. एतत् सम्बोधनं वरुणस्य कृते. पित्र्या दुग्धानि पितृतः प्राप्तानि. पित्र्या इति शब्दस्य पितृतः प्राप्तानि इत्यर्थः. सृजा नो इत्यस्ति नः इति पदम्. पितृतः प्राप्तानि अस्मदीयानि दुग्धानि द्रोहान् बन्धनहेतुभूतान् द्रोहान् अवसृज विमुञ्च. प्रायः कुटुम्बे कलहः इति भाति. तस्य पिता सहोदरः परस्परं तत्र काचित् कथा अस्ति नाम वसिष्ठस्य पुत्राः शतसङ्ख्याकाः तेषां परस्परं कलहः मारणं जातम् इत्यादि काचित् कथा अस्ति तेषां एवं श्रूयते. अतः सः वदति कदाचित् तादृशकुटुम्बसम्बद्धद्रोहादिकं भवति. अहं तस्य विषये कोपं करोमि, सः मम विषये कोपं करोति. अतः कुटुम्बं कुटुम्बजीवनस्य बहु मिलित्वा जीवनस्य बहु प्रयोजनमस्ति, नानाविधप्रयोजनमस्ति. परन्तु कुटुम्बे एव बहु रागद्वेषादिकमपि वर्धते. यथा किं दायविभागः इति कश्चन भवति तत्र सोत्तुसण्डे, तत् कुटुम्बे एव किल अधिकं भवति. प्रापर्टि विषये कलहः यः भवति कुटुम्बतः एव किल वर्धते. सिविल् केसस् सर्वं बहु अस्ति इति चेत् तत्कारणमेव किल. अतः पितृतः यत् प्राप्यते द्रोहादिकं द्रोहचिन्तनं मम मनसि रागद्वेषादिकं यद्भवति ततः मां विमुञ्च. तादृशकौटुम्बिककलहेषु मम मनः यद् बद्धं सत् दुष्टं चिन्तयति ततः मां मोचय. प्रायः तदपि एकं कारणं स्यात् भगवद्दर्शन अभावे. किञ्चित् वैराग्यं प्राप्तव्यम् इति तात्पर्यम् इति भाति कौटुम्बिककलहेभ्यः इति. अतः अस्मत्तः विश्लेषय इति भाति. अनन्तरम् अवया वयं चक्रमा तनूभिः. वयं च वयम् इति पदमस्ति. वयं जनाः भक्ताः या यानि नाम द्रोहजातानि बहुविधद्रोहकार्याणि तनूभिः शरीरैः चक्रम कृतवन्तः स्म तानि अवसृज. प्रायः तत्र कुटुम्बसम्बन्धतः कलहः जातः भवति, पुनश्च शरीरेणापि अस्माभिः कदाचित् केचन नाम तर्हि अत्र शरीरेण वयं द्रोहं कृतवन्तः इति चेत् पूर्वत्र मानसिकरूपेण वाचिकरूपेण इति अवशिष्टं स्वीकरणीयम्. अतः एवं तनुशब्दः अत्र प्रयुक्तः, तर्हि वाक् मनः तत्र स्वीकरणीयम्. अतः मनसा वाचा कर्मणा च यान् द्रोहान् वयम् आचरितवन्तः, रागद्वेषादिकम् अनुभूतवन्तः, तेभ्यः अस्मान् विश्लेषय इति. अनन्तरम् अग्रे द्वित्र उदाहरणानि दीयन्ते अत्र कथं मोचनं करणीयम् इत्यादि. अवराजन् पशुतृपं न तायुं सृजा इति एकम् उदाहरणम्. अनन्तरं वत्सं न दाम्नो वसिष्ठम् इति वसिष्ठस्य नाम एव आगच्छति अस्मिन् मन्त्रे. हे राजन्, वरुणः राजा इत्येव, उरुगुं हि राजा वरुणश्चकार इति यथा इन्द्रः राजा इति परिगण्यते एवं वरुणः अपि राजा इत्येव परिगण्यते. अत एव उक्तम् इन्द्रः अपि राजत्वेन स्तूयते, वरुणः अपि राजत्वेन स्तूयते. अतः हे राजन् राजमान श्रेष्ठ वरुण, किं पशुतृपं न तायुम् इति. पुनः अत्र न शब्दः इवार्थे मृगन्न भीमम् इति आगतं किल, अत्रापि न शब्दः अत्र सादृश्यार्थे पशुतृपं तायुं स्थैन्यप्रायश्चित्तं कृत्वा अवसाने घासादिभिः पशूनां तर्पयितारं स्तेनमिव दाम्नः. ओके, प्रथमखण्डं स्वीकुर्मः. किमस्ति पशुतृपं तायुं, कश्चित् किं कृतवान्, पशुतृपः इति पदं विशिष्टं पदम् अत्र अस्ति, वैदिकं पदं. पशुतृपशब्दस्य कः अर्थः, कश्चित् चौर्यं कृतवान्, चौर्यं कृत्वा तस्य प्रायश्चित्तं कृतवान्, प्रायश्चित्तं कृत्वा नाम अपराधं दण्डं स्वीकृतवान् वा किं वा, तस्य प्रायश्चित्तं कृत्वा अन्ते किं करोति, सः पशूनां कृते तृणं दद्यात् इत्यस्ति. प्रायः प्राचीनकालस्य दण्डनप्रक्रिया सा अस्ति इति भाति. तेन सैन्यं चोरकार्यं क्रियते चेत् तेन किं करणीयं, पशवः तर्पणीयाः, प्राणिनां कृते तृणादिकं सङ्गृह्य आनीय दातव्यं. सः पशून् प्रीणाति, पशूनां तर्पणं करोति, प्रीतिम् उत्पादयति इति कारणेन पशुतृपः इति उच्यते. पशुतृपः कः, तायुः. तायुः नाम चोरः. यथा कश्चित् प्रीतिं करोति, कथं प्रीतिं करोति, तेषां कृते तृणदानमेव प्रीतिः, प्रीतिहेतुः भवति. अतः यथा पशुतृपः तायुः, तायुः नाम चोरः, पशुतृपः पशूनां प्रीत्युत्पादकः चोरः यथा अस्ति, यदि पशु राजा पश्यन् भवति एषः चोरः, प्रायश्चित्तं कृत्वा अन्ते पशूनां कृते प्रीतिम् उत्पादितवान् वा, तर्हि तस्य विमोचनं, नो चेत् तावत्पर्यन्तं बन्धनम्. एवमेव यथा पशुतृपं तायुं कश्चित् राजा विमुञ्चति, एवमेव अस्माकं मनसः द्रोहान् विमोचयतु इति प्रार्थना इति एकम् उदाहरणम्. अग्रे अनन्तरं किं, तत्र दाम्नः इति पदमस्ति, तद्दामपदं पूर्वत्रापि स्वीकर्तुं शक्यते. दाम नाम बन्धनम् इत्यर्थः, रज्जुः. कश्चित् चोरः तावत्पर्यन्तं बद्धः भवति राज्ञा यावत्पर्यन्तं सः प्रायश्चित्तं कृत्वा पशुतृपः न भवति. यदि कृतवान् स्यात् तर्हि सः विमोच्यते. एवमेव दाम्नः पशुतृपं तायुं, तथा पुनः दाम्नः वत्सम्, अन्यदपि उदाहरणं वत्सन्न दाम्नः इत्यपि द्वितीयम् उदाहरणं किमस्ति. यथा वत्सः दाम्नः अवसृज्यते. वत्सो नाम बालधेनुः, सा अस्ति किल, तस्यापि बन्धनात् विमोचनं क्रियते. माता तृणं चरितुं गतवती भवति वनं, वनात् प्रत्यागच्छति, तस्य माता आगता इति बन्धनात् विमोचयन्ति, सा क्षीरं पातुं दुग्धं पातुं धावति किल. एवमेव तदर्थं सः वत्सः विमोच्यते. एवमेव दाम्नः वत्सं न दाम्नः, वत्सः इव दाम्नः. वत्सः यथा दाम्नः विमुच्यते, पशुतृपः तायुः च यथा अवसृज्यते, तथा वसिष्ठं वसिष्ठमपि मोचयतु, महमपि मोचयतु. कुतः? दुग्धानि यानि सन्ति, द्रोहाः ये सन्ति, द्रोहचिन्तनं, द्रोहकार्यं, द्रोहवचनम्, एतत् सर्वं यदस्ति ततः मोचय, विमुञ्च, अवसृज. अवराजन् पशुद्रूपं न तायु सृज, अवसृज नाम मोचय. तस्य उदाहरणद्वयं, वत्सः बन्धनादिव, चोरः प्रायश्चित्ताद् अनन्तरमिव, मां मोचय. समीचीन उदाहरणं नाम इदं रामकृष्णपरमहंसस्य पुस्तकं पठामः चेत् सरलानि उदाहरणानि सः वदति बहुत्र विषयेषु. यदा भगवतः दर्शन इच्छा नाम व्याघ्रः उग्रः भवति मनसि, कश्चित् व्याघ्रः वने अत्यन्तम् उग्रः भवति चेत् बहवः प्राणिनः न जीवन्ति, सः सर्वान् खादित्वा भक्षयित्वा समापयति. एवमेव भगवद्दर्शन इच्छा इति यदि कश्चित् व्याघ्रः मनसि बलवान् भवति, रागः, द्वेषः, कामः, क्रोधः इत्येते प्राणिनः न जीवन्ति इति सः उदाहरणं वदति. सरलम् उदाहरणमेव, जनाः एवमेव अत्रापि उदाहरणद्वारा भक्तिं प्रकटयति सः वसिष्ठः. अनन्तरं षष्ठः मन्त्रः अत्यन्तम् अहं बहु तस्य मम रोचकं जातम् एतत्. किमर्थमहं पापं करोमि इति सः रीसनिङ्ग् औट् करोति. तत् कारणं शृणोति चेत् चकितः भवति, वेदे अस्ति वा एतादृशं वचनम् इति पश्यामः. तदपि वसिष्ठः वदति वा एतादृशं वचनम् इति किमस्ति इति पश्यामः. नसस्वो दक्षो वरुण धृतिः सासुरा मन्युर्विभीतको अचित्तिः अस्ति ज्यायान् कनीयस उपारे स्वप्नश्चन स्वप्नश्चनेदनृतस्य सारी स्वप्नश्चन इत् अनृतस्य प्रयोता इत्यस्ति. किमस्ति? न सस्वो दक्षः, हे वरुण, सः स्वः दक्षः पुरुषस्य स्वभूतं तद्बलं पापप्रवृत्तौ कारणं न भवति इति वदति. किमस्ति? सः कश्चित् पुरुषः स्वोदक्षः, स्वयं दक्षः नाम बलयुक्तः, सः पुरुषः स्वयं बलयुक्तः, स्वोदक्षः न, हे वरुण, स्वयं कश्चित् पापं कर्तुं न प्रवर्तते, अहं पापं करोमि इति कश्चिदपि स्वयं न प्रवर्तते. तर्हि किं कारणं? कश्चित् पापप्रवृत्तौ, कस्यचन पापप्रवृत्तौ किं कारणं? धृतिः इति पदमस्ति, धृतिः एव कारणं. धृतिः नाम का? नाम स्थिरा. धृतिशब्दस्य स्थिरा उत्पत्तिसमये एव निर्मिता दैवगतिः कारणम्. यत्किञ्चित् दैवगतिः, मम भाग्यं, लक् इति वदन्ति किल, अदृष्टम् अथवा ललाटलिखिता रेखा इति वदन्ति किल, सा एव धृतिः. नाम धृतिः मीन्स् अन्चेञ्जिङ्ग् फेट्. तदेव कारणं, कश्चित् अहमेव पापं करोमि इति बुद्धिपूर्वकं कोऽपि पापं न करोति, धृतिः अथवा दैवस्य गतिः एव अत्र कारणम् इति. कीदृशी धृतिः? सा धृतिः अस्ति चेत् मनुष्यः कथं कथं प्रवर्तते, किं किं पापकार्यं करोति सः इति अत्र अस्ति. सा धृतिः वक्ष्यमाणरूपा, सा धृतिः धृतिः सा सुरा प्रमादकारिणी. नाम कश्चित् धृति धृत्या प्रेरित प्रेरितः किं करोति? प्रमादं करोति, सुरापानादिकं कृत्वा मत्तः भवति इत्यर्थः. स्वयं न पिबति सः, कोऽपि गत्वा सुरां न पिबति. सः पिबति चेत् किं कारणं? तस्य फेट्. एतदेव विशिष्टं. सः एषः वदति किल किमर्थमिति चेत् अहम् अनेन दुर्योधनः स्मारितः. सः वदति जानामि धर्मं न च मे प्रवृत्तिः, जानामि अधर्मं न च मे निवृत्तिः. अहं धर्मं किम् इति जानामि, कः धर्मः इति मया ज्ञायते, पुनः कः अधर्मः इत्यपि न ज्ञायते, परन्तु अहं करोमि, अधर्ममेव करोमि, धर्मं न करोमि. केनापि देवेन हृदि स्थितेन कश्चित् देवः मम हृदये अस्ति, यथा नियुक्तोऽस्मि तथा करोमि इति वदति किल, समानमत्र अस्ति. सः देवः कः? फेट्. तस्य उपरि सर्वं स्थापयति. स्वयं कोऽपि गत्वा सुरां न पिबति. अनन्तरं सुरा मन्युः नाम कोपः, स्वयमपि कश्चित् कोपं न करोति. कस्मिन् विषये? गुर्वादिविषये. अत्र किञ्चित् विशेषणं योजितमस्ति. अन्येषां तर्हि सायणाचार्य लैसेन्स् ददाति, अन्येषां विषये कोपादिकं कर्तुं शक्यते, न तु ज्येष्ठानां विषये इति. तत्तु पापाय. अन्यत्र तु कदाचित् कोपः अङ्गीकार्यः स्यात्, गुर्वादीनां ज्येष्ठानां विषये कोपः पापहेतुः एव इति. अतः सुरा मन्युः नाम क्रोधः अनर्थहेतुः, नाम अनर्थं प्रति नयति. विभीदकः एवमेव द्यूतकार्यं, द्यूतकार्यादिकं. द्यूतसाधनः अक्षः, विभीतकशब्दस्य अक्षः इत्यर्थः, डैस् इत्यर्थः. अतः डैस् स्वीकृत्य किं कुर्वन्ति जनाः? द्यूतमेव कुर्वन्ति, अन्यत् किमपि न कुर्वन्ति. अतः सा धृतिः अस्ति किल, तया एव सुरा, तया एव मन्युः, तया एव विभीदकः. अनन्तरं अचित्तिः, अचित्तिः नाम अज्ञानम् इति. अज्ञानं वा अविवेकः वा, अतः कश्चित् अविवेकी भवति, कश्चित् विभीदकः अक्षादिकम् उपयुङ्क्ते, कश्चित् कोपं करोति ज्येष्ठानां विषये, कश्चित् पुनः सुरादिकं पिबति इति चेत् तत्र हेतुः धृतिः एव, न स्वोदक्षः, न कश्चित् स्वयम् एतेषु कार्येषु बुद्धिपूर्वकं प्रवर्तते. अतः ईदृशी दैवक्लृप्तिरेव पुरुषस्य पापप्रवृत्तौ कारणम्. अग्रिमवाक्यमेव इतोपि आश्चर्यं जनयति. किं वदति इति चेत्, अपि च अग्रिमं कनीयसः अल्पस्य हीनस्य, कनीयसः इति पदमस्ति, कनीयसः अल्पस्य, कनीयस् शब्दस्य अल्पः इत्यर्थः, अल्पस्य हीनस्य पुरुषस्य पापप्रवृत्तौ उपारे उपगते, उपारे इति पदमस्ति किल, कनीयसः उपारे उपगते समीपे नियन्तृत्वेन स्थितः ज्यायान् अधिकः ईश्वरः अस्ति, सः एव तं पापे प्रवर्तयति इति वदति. प्रथमं सः कारणम् अन्विष्टवान् फेट्, द्वितीयं कारणं सः अन्विषति ईश्वरः एव, ईश्वरः एव कारयति, प्राब्लि डेस्परेशन् अत्र. कथञ्चित् भवान् ईश्वरः एव मां नाम कनीयसः जीवात्मनः उपारे समीपे कश्चन वर्तते किल, उपारे यः अस्ति जायान् ईश्वरः ज्येष्ठः यः अस्ति सः एव पापे तं प्रवर्तयति. किमस्ति कश्चन श्लोकः अस्ति यत् डेस्टिनि विषये वदति, अज्ञो जन्तुः अनीशोऽयम् आत्मनः सुखदुःखयोः ईश्वरप्रेरितो गच्छेत् स्वर्गं वा शुभ्रमेव वा इति. ईश्वरप्रेरणया एव वयं पुण्यकार्यमपि कुर्मः, ईश्वरप्रेरणया एव वयं पापकार्यमपि कुर्मः इति सः भावः अत्र प्रपञ्चितः. एवं समीपे एव अस्ति ईश्वरः, सः एव कनीयांसं मां ज्येष्ठः सः मां पापे अपि प्रवर्तयति. नाम तत्र तथा च आम्नातम् अन्यत्रापि कौशीतिकी उपनिषदि अपि अस्ति. किमस्ति? एष ह्येव असाधुकर्म कारयति तं यम् अधो निनीषते, बहु उत्तमः मन्त्रः अस्ति. किमस्ति इति चेत्, यम् अधः नेतुमिच्छति ईश्वरः तद्वारा असाधुकार्यं कारयति स्वयम् ईश्वरः. किमर्थम् अधः निनीषति सः इति चेत्, नेतुमिच्छति सः इति चेत्, सः अत्यन्तं तस्य पूर्वतनकर्मभिः सः न योग्यः उत्तमकर्माणि कर्तुम् इत्येव कर्मसिद्धान्तः एव पुनः पुनः अत्र चङ्क्रमते. अतः एवं त ईश्वरः एव फलमत उपपत्तेः इति ब्रह्मसूत्रमस्ति. ईश्वरः एव फलदाता, परन्तु फलस्य किं कारणं? प्राक्तनकर्माणि. ईश्वरस्य सः तस्य किमस्ति? वैषम्यनैर्घृण्ये न स्तः. वैषम्यं नाम एकस्य कृते स्वर्गं ददाति, अन्यस्य विषये सः निर्घृणः, नाम करुणारहितः. तस्य किमपि नास्ति, सः तटस्थः एव. सः एव पुण्यं कर्मापि कारयति, सः एव पापं कर्म कारयति. कस्य कृते पुण्यकर्म अनुष्ठाने सः सौकर्यं कल्पयति? यः पुण्यशाली तं पुण्यकर्म कारयति. यः स्वकर्मणा स्वभावेन दुष्टः अस्ति, पापं कारयित्वा नरकं प्रापयति, तदा सः नरके दुःखम् अनुभूय मोर् पाप करोति चेत् झटिति सः नरकं प्राप्नोति. किमस्ति इति चेत्, अत्युत्कटैः पुण्यपापैः इहैव फलमश्नुते इति. कश्चित् पापी अस्ति, इतोपि तम् अधिकं पापकर्म कारयति चेत् उत्कटं पाप भवति, असह्यं पापकर्म भवति, तर्हि किं भवति? शीघ्रं सः नरकं प्राप्नोति. शीघ्रं नरकं प्राप्नोति चेत् कर्मफलम् अनुभवति. कर्मफले अनुभूते सति पश्चात्तापः उदेति. पश्चात्तापेन सः आत्मानं परिष्कुर्यात्, न तु स्वयं केनचित् कारणेन सः एवमेव इति. तत्र इदानीं सद्यः कुत्रचित् पठन्नासम्, ईश्वरः सर्वशक्तः चेत् सर्वेषां कृते सः मोक्षं दातुम् अर्हति, अथवा सर्वेपि कस्मिंश्चित् काले मोक्षं प्राप्नुवन्ति चेत् अहं पुण्यकर्म करोमि पापं कर्म करोमि इति किमर्थं भवेत् इति कश्चन प्रश्नः भवति किल. मोक्तुं मुमुक्षा, अत एव मुमुक्षा इति काचित् भवेत्. मुमुक्षा इति यावत् मनसि, मोक्तुम् इच्छा इति यावत् मनसि न उदेति, तावत्पर्यन्तम् ईश्वरः नानुगृह्णाति. अत्यन्तं पापी भवतु, परन्तु मनसि किं भवेत्? मुमुक्षा इति भावना भवेत्. मुमुक्षा नास्ति चेत्, यदि मुमुक्षा अस्ति सः ऋजुमार्गेण वा कुटिलमार्गेण वा कथञ्चित् मां मोक्षमार्गं प्रति नयति. सा मुमुक्षा नास्ति चेत् न नयति. कश्चित् श्लोकः अस्ति, वृजिनं सन्तरिष्यति इति, भगवद्गीतायामस्ति. अत्यन्तं पापी चेदपि यदि तस्य मनसि कथञ्चित् मुमुक्षा उत्पन्ना, तर्हि भगवान् विल् टेक् ओवर्. तावत्पर्य मुमुक्षा उत्पादनं तु अस्माकं स्वातन्त्र्यं, तत्र अस्माभिः कार्यं करणीयम् इति.
तदपि प्रायः पूर्वजन्मस्य वासनादि
पूर्वजन्म न एवं तस्य रिपी सोर्स् पश्यन्तः भवामः चेत् तत्र किञ्चित् स्वातन्त्र्यम् अस्ति इत्येव अस्माभिः चिन्तनीयं. स्वातन्त्र्येण विना तत् किं मुमुक्षा इत्येतत् नोत्पद्यते. अतः पूर्वतन इदं प्रवर्तते. अन्यदपि इदानीं येषु दिनेषु अहम् एतत् बहुत्र पुनः पुनः वदन्नस्मि, कथम् इति न ज्ञायते. एतत् किं भवति, अस्माकं ट्राक् इदानीं पापकर्म अनुभवस्यैव इदं स्यात्. तथापि वयम् अस्मिन् जगति एकाकिनः न, अस्माकं परितः बहवः आत्मानः सन्ति, पुण्यशालिनः अपि सन्ति, पापशीलाः अपि सन्ति. कदाचित् केनचित् कारणेन अहं कस्यचित् साक्षाद् वा परोक्षरूपेण वा सज्जनस्य सङ्गमं प्राप्तवान् स्यां, येन मम मनसि तस्य बीजावापः स्यात् इत्यपि साध्यमस्ति. मम तु धृतिः इति, अतः मम ट्राक् किम् अस्ति? पापस्य ट्राक् एव. अहं दुःखमेव अनुभवामि, तथापि इन् द कोर्स् आफ़् इण्ट्राक्षन् वित् वेरियस् अदर् सोल्स् दर् इस् अ पासिबिलिटि दट् ऐ मे आक्सिडेण्टलि हाव् गेन्ड् सम् पुण्यसंस्कार दट् विल् लीड् मी अपि, अदू पासिबल्, अदूर् एक्स्प्लनेशन्. अतः अस्तिज्यायान् कनीयस उपारे, ईश्वरः एव कारितवान् धृतिः, अथवा ईश्वरः एव असाधुकर्म कारितवान् इति. स्वप्नश्चनेदनृतस्य प्रयोता इति किमस्ति इति चेत्, एवं सति स्वप्नश्चन, स्वप्नश्चन स्वप्नः अपि अनृतस्य पापस्य प्रयोता, ಪ್ರಕರ್ಷೇಣ ಮಿಶ್ರಯಿತಾ ಭವತಿ. ಎತದಪಿ ಅತ್ಯಂತಂ ಆಶ್ಚರ್ಯಕರಂ ಚಿಂತನಂ ಅಸ್ತಿ. ಕಿಮಸ್ತಿ ಇತಿ ಚೇತ್, ಅಸ್ಮಿನ್ ಮಂತ್ರೇ ಕಥಂ ಇದಮಸ್ತಿ ಇತಿ. ಜಾಗೃತಾವಸ್ಥಾಯಾಂ ವಯಂ ಕರ್ಮಾಣಿ ಕುರ್ಮಃ, ತತ ಬುದ್ಧಿಪೂರ್ವಕಂ ಕುರ್ಮಃ, ಪುಣ್ಯಪಾಪಾದಿ ಸಂಚಯಂ ಪ್ರಾಪ್ನುಮಃ. ಅತ್ರ ವದತಿ ಸ್ವಪ್ನೆ ಅಪಿ ವಯಂ ಕಾರ್ಯಾಣಿ ಯಾನಿ ಕುರ್ಮಃ ತತಃ ಪುಣ್ಯಪಾಪಾದಿಕಂ ಜಾಯತೆ ಇತಿ. ಏವಂಚ ಸತಿ ಸ್ವಪ್ನಶ್ಚನ ಸ್ವಪ್ನೋಪಿ ಅನೃತಸ್ಯ ಪಾಪಸ್ಯ ಪ್ರಕರ್ಷೇಣ ಮಿಶ್ರಯಿತ. ಸ್ವಪ್ನೇ ಕೃತೈರಪಿ ಕರ್ಮಭಿಃ ಬಹೂನಿ ಪಾಪಾನಿ ಜಾಯಂತೆ. ಕಿಮು ವಕ್ತವ್ಯಂ ಜಾಗೃತಿ ಕೃತೈಃ ಕರ್ಮಭಿಃ ಪಾಪಾನಿ ಉತ್ಪದ್ಯಂತೆ ಇತಿ. ಅತಃ ಇದಾನೀ ಜಾಗೃತ ಅವಸ್ಥಾಯಾಂ ಅಹಂ ಪಾಪಂ ಕೃತವಾನ್ ಚೇತ್ ಅಹಂ ಸ್ವತಂತ್ರಃ. ತತ್ರಾಪಿ ಸಹ ಧೃತಿಃ ಇತಿ ಉಕ್ತವಾನ್. ಭವತು ನಾಮ ತಂ ಪಕ್ಷಂ ತ್ಯಜಾಮಃ. ಜಾಗೃತ ಅವಸ್ಥಾಯಾಂ ಅಹಂ ಜಾಗೃತಃ, ಮಮ ಇಂದ್ರಿಯಾಣಿ ಮಮ ನಿಗ್ರಹೇ ಸಂತಿ, ಮಮ ಮನಃ ಮಮ ನಿಗ್ರಹೇ ಸಂತಿ. ಅಹಂ ಪಾಪಂ ಕೃತವಾನ್ ಚೇ ಭವಾಂಶ್ಚೇತ್ ತಸ್ಯ ದಾಯಿತ್ವಂ ಅಹಂ ಕದಾಚಿತ್ ಸ್ವೀಕರ್ತುಂ ಶಕ್ನುಯಾಮ್. ಪರಂತು ಸ್ವಪ್ನೆ ಅಪಿ ಅಹಂ ಪಾಪಂ ಕರೋಮಿ. ತತ್ ಕೇನ ಕಾರಣೇನ? ಈಶ್ವರ ಕಾರಣೇನೇವ ಇತಿ ತಸ್ಯ ಸಹ ಸಮರ್ಥನಂ ಕರೋತಿ. ಸ್ವಪ್ನೆ ಅಪಿ ಯದಿ ಕಶ್ಚಿತ್ ಪಾಪಂ ಕುರ್ಯಾತ್ ತಾವತ್ ತಸ್ಯ ಪಾಪ ಸಂಸ್ಕಾರಾಃ ಪಾಪವಾಸನಾಃ ಸಂತಿ ಇತ್ಯರ್ಥಃ. ಅತಏವ ಈಶ್ವರಃ ಸ್ವಪ್ನೇಪಿ ಮಾಂ ಪಾಪಕರ್ಮಾಣಿ ಕಾರಯತಿ ಇತಿ. ಅತಃ ತಾದೃಶಃ ಅತ್ಯಂತಂ ದೀನಃ ಅಸ್ಮಿ ಸ್ವದೈನ್ಯಂ ಪ್ರಕಟಯತಿ. ಭಕ್ತಃ ಅತ್ರ ಸ್ವದೈನ್ಯಂ ಪ್ರಕಟಯತಿ. ಏಷಃ ಇದಮಸ್ತಿ ಕಿಲ ಮಾರ್ಜಾರಶಿಶುನ್ಯಾಯಃ ಇವ ಅಹಂ ಅತ್ಯಂತಂ ಪಾಪಿ ಪಾಪೋಹಂ ಪಾಪಕರ್ಮಾಹಂ ಪಾಪಾತ್ಮ ಪಾಪಸಂಭವಃ ಇತ್ಯಾದಿ ಕಶ್ಚನ ಶ್ಲೋಕಃ ಅಸ್ತಿ. ಯತ್ರ ಆತ್ಮನಃ ಅತ್ಯಂತಂ ನಿಕೃಷ್ಟತಾಂ ಪ್ರಕಟಯತಿ. ಪೂರ್ವ ಏತೇನ ಸಹ ಈಶ್ವರಸ್ಯ ಉಪರಿ ದೋಷಂ ಕರೋತಿ ಕರ್ಮಣೋ ಗತಿ ಕರ್ಮಣಃ ಗತಿ ಈದೃಶಿ ಅಸ್ತಿ ಇತ್ಯಾದಿ ಕಥಯತಿ ಇತಿ ತಾತ್ಪರ್ಯಂ ನ ಸ್ವೀಕಾರ್ಯಂ ಯೇನ ಕಿಮಪಿ ಪ್ರಯೋಜನಂ ನಾಸ್ತಿ ಏವಂ ತಾತ್ಪರ್ಯಂ ಸ್ವೀಕೃತ್ಯ ಕಿಂ ವಯಂ ಪ್ರಾಪ್ನುಮಃ. ಕಿಂ ಸ್ವೀಕರಣೀಯಂ ಇತಿ ಚೇತ್ ಮನುಷ್ಯ ಜೀವನಂ ತಾದೃಶಂ ಅಸ್ತಿ ಯತ್ ಜಾಗೃತಾವಸ್ಥಾಯಾಂ ಸ್ವಪ್ನಾವಸ್ಥಾಯಾಂ ಅಪಿ ವಯಂ ಪಾಪಕರ್ಮಾಣಿ ಕರ್ತುಂ ಸಮರ್ಥಾಃ. ಅತ್ಯಂತಂ ಇದಂ ವದಂತಿ ಕಿಲ ಕ್ಷುರಸ್ಯ ಧಾರಾ, ಇಟ್ ಈಸ್ ಲೈಕ್ ವಾಕಿಂಗ್ ಆನ್ ದ ರೇಸರ್ ಬ್ಲೇಡ್, ಸೋ ಡಿಫಿಕಲ್ಟ್. ಕದಾ ವೆನ್ ವಿ ವಿಲ್ ಸ್ಲಿಪ್, ಅದೇ ಕ್ಷುರಸ್ಯ ಧಾರಾಯ ಉಪರಿ ಚಲನಮೇವ ಕಷ್ಟಂ ಜನಯತಿ. ಅನಂತರಂ ತತಃ ವಯಂ ಪತಾಮಃ ಇತ್ಯಪಿ ಬಹು ಕಷ್ಟಂ. ತಾದೃಶಂ ಜೀವನಮಸ್ತಿ, ಅತಃ ಭಗವನ್ ಅನುಗ್ರಹಾಣ ಇತ್ಯರ್ಥೇ ಏವಂ ಸ್ವೀಕರಣೆ. ಅತಃ ಮಮ ಅಪರಾಧಃ ದೈವಗತಃ ಇತಿ ಹೇ ವರುಣ ತ್ವಯಾ ಕ್ಷಂತವ್ಯಃ ಇತಿ ಭಾವಃ. ಅತ್ಯಂತಂ ಚಿಂತನೀಯಾಃ ಅನೇಕ ವಿಷಯಾಃ ಅತ್ರ ಸಂತಿ. ಕಶ್ಚಿತ್ ಪೃಚ್ಛನ್ ಆಸೀತ್ ಅದ್ಯೈವ ಕುತ್ರಚಿತ್ ಕಕ್ಷಾಯಾಂ, ಏತತ್ ಕರ್ಮ ಥಿಯರಿ ಇತಿ ಉಚ್ಯತೆ ಕಿಲ, ತತ್ ಕೇವಲಂ ಉಪನಿಷತ್ ಕಾಲೇ ಏವ ಆಗತಂ ವಾ ಇತಿ. ಅತ್ರೈವ ಅಸ್ತಿ, ಅದು ಅತ್ಯಂತಂ ಋಗ್ವೇದ ಸಂಹಿತಾಯಾಂ ಪ್ರಾಚೀನ ಗ್ರಂಥೇ ಏವ ಇದ ಕರ್ಮ ಸಿದ್ಧಾಂತಃ ಅಸ್ಮಭಿಃ ದೃಶ್ಯತೆ. ಅಸ್ತು ಅಗ್ರೆ ಅಂತಿಮ ಮಂತ್ರದ್ವಯಂ. ಅರಂದಾಸೋನ ಮೀಹ್ಲುಷೇ ಕರಾಣ್ಯಹಂ ದೇವಾಯ ಭೂರ್ಣಯೇ ಅನಾಗಾಃ ಅಚೇತಯದ್ ಅಚಿತೋ ದೇವೋ ಅರ್ಯೋ ಗೃತ್ಸಂ ರಾಯೇ ಕವಿತಾರೋ ಜುನಾತಿ. ಅಸ್ತು ಅತ್ರ ಕಿಂ ಕರೋತಿ ಇತಿ ಚೇತ್, ಅತ್ರ ದಾಸಭಾವಃ ಪ್ರಕಟ್ಯತೆ. ಪಶ್ಯಂತು ಅತ್ರ ಪೂರ್ವತ್ರ ಸ್ವಸ್ಯ ದೈನ್ಯಂ ಸೂಚಿತಂ, ಅಹಂ ಭವತಃ ದಾಸಃ ಅಸ್ಮಿ ದಾಸ್ಯಂ ಕರೋಮಿ ಇತಿ ಅತ್ರ ವದತಿ. ಮೀಹ್ಲುಷೇ ಇತಿ ಪ್ರಥಮಂ ಅಸ್ತಿ. ಮೀಹ್ಲುಷೇ ಮೀಢುಷೇ ನಮ ಮೇಹನಂ ನಮ ಸೇಚನಂ ಇತ್ಯರ್ಥಃ. ಯಃ ಅಥೈವ ಮೇಘಃ ಇತಿ ಉಚ್ಯತೆ. ಮೇಘಪದಂ ಕಿಮರ್ಥಂ? ಯಃ ಸೇಚನಂ ಕರೋತಿ ಸಿಂಚತಿ ಏಷಃ ಅಪಿ ಸೇಚಕಃ ವರುಣಃ ಅಪಿ. ಕಿಂ ಸೇಚಯತಿ ಸಹ? ಕಾಮಾನಾಂ ಅಸ್ಮಾಕಂ ಇಚ್ಛಾಃ ಅಭಿಲಾಷಾಃ ತಾಃ ಸರ್ವಾಃ ಸೇಚಯತಿ ಸಹ. ತತ್ರ ವೃಷಾಣಃ ಇತಿ ಪದಂ ತತ್ರ ವರ್ಷಣಂ ಕರೋತಿ ಇತಿ, ತಾದೃಶ ಪ್ರಯೋಗಃ ಅತ್ರ ಬಹು ಅಸ್ತಿ. ಅತಃ ಮೀಹ್ಲುಷೇ ಸೇಕ್ತ್ರೇ ನಮ ಯಃ ಕಾಮಾನಾಂ ವರ್ಷಣಂ ಕರೋತಿ ತಾದೃಶಃ ವರುಣಃ ತಸ್ಮೈ ಮೀಹ್ಲುಷೇ. ಅನ್ಯದೇಕಂ ಪದಮಸ್ತಿ ಭೂರ್ಣಯೇ ಇತಿ, ದ್ವಿತೀಯ ಪಾದೇ ಅಸ್ತಿ. ಮೀಹ್ಲುಷೇ ಭೂರ್ಣಯೇ, ಭೂರ್ಣಿಃ ನಾಮ ಜಗತಃ ಭರ್ತಾ, ಜಗತಃ ರಕ್ಷಕಃ ಇತ್ಯರ್ಥಃ. ತಸ್ಮೈ ವರುಣಾಯ ಭೂರ್ಣಿ ಶಬ್ದಃ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ ಭೂರ್ಣಯೇ ಇತ್ಯಸ್ತಿ. ಮಿಹ್ಲುಷೇ ಭೂರ್ಣಯೇ ದೇವಾಯ ಇತಿ ಅಪಿ ಪದಮಸ್ತಿ. ಮಿಹ್ಲುಷೇ ಭೂರ್ಣಯೇ ದೇವಾಯ ದಾನಾದಿ ಗುಣಯುಕ್ತಾಯ ಕಸ್ಮೈ ವರುಣಾಯೇ ಏವ. ವರುಣಃ ಏವ ಅತ್ರ ಸ್ತೂಯಮಾನಃ ಅಸ್ತಿ. ವರುಣಾಯ ಭೂರ್ಣಯೇ ಅನಾಗಾಹ ಇತಿ ಪದಮಸ್ತಿ. ತತ್ ಪ್ರಸಾದಾತ್ ಅಪಾಪಃ ಸನ್ ಪಾಪ ತಸ್ಯ ಪ್ರಸಾದಃ ಜಾಯತೆ ಯದಾಹಂ ಪೂರ್ವತ್ರ ಆತ್ಮನಃ ಸಮರ್ಪಣಂ ಕರೋಮಿ ಏವಂ ತಾದೃಶಃ ಅಹಂ ದೈನ್ಯಃ ದೀನಃ ಅಸ್ಮಿ ಇತಿ ಯದಾ ಆತ್ಮಸಮರ್ಪಣಂ ಕರೋಮಿ ತದಾ ಭಗವತಃ ಕೃಪಾಮಹಂ ಪ್ರಾಪ್ನೋಮಿ ತೇನ ಅಹಂ ಅನಾಗಾಹ ಅಪಹತ ಪಾಪಃ ಭೂತ್ವಾ ಅಹಂ ಅರಂ. ಅರಂ ಇತಿ ಪದಮಸ್ತಿ. ಅಲಂ ಅಲಂ ನಾಮ ಪರ್ಯಾಪ್ತಂ. ಕರಾಣಿ ಕರಾಣ್ಯಹಂ ಅರಂ ಇತಿ ಯೋಜನೀಯ. ವದಾಮಿ ಕಿಂ ಇತಿ ತತ್. ಅಥ ಕಿಮಸ್ತಿ ಮಿಹ್ಲುಷೇ ಪೂರ್ಣಯೇ ದೇವಾಯ ಅನಾಗಾಹ ಅಹಂ ಅರಂ ಕರಾಣಿ ತದ್ಯದ್ ತಸ್ಯ ಯತ್ ಪರ್ಯಾಪ್ತಂ ತಸ್ಯ ಯದ್ ಅವಶ್ಯಕಂ ತದ್ ಅಹಂ ಕರೋಮಿ. ಸಹ ಯಾವತ್ ಪರ್ಯಾಪ್ತಂ ಇತಿ ವದತಿ ತಾವತ್ ಪರ್ಯಂತಂ ಅಹಂ ಕರೋಮಿ ಪರಿಚರಣಂ ಕರವಾಣಿ ಸೇವಾಂ ಕುರ್ಯಾಂ ಇತಿ. ಕಥಂ ಸೇವಾಂ ಕುರ್ಯಾಂ ದಾಸೋ ನ ನ ಇತಿ ಚೇತ್ ಇವ ದಾಸಃ ಇವ. ಯಥಾ ದಾಸಃ ಸ್ವಾಮಿನೇ ಸಮ್ಯಕ್ ಪರಿಚರತಿ ತದ್ವತ್ ಅಹಂ ಮೀಹ್ಲುಷೇ ಪೂರ್ಣಯೇ ದೇವಾಯ ಪಾಪರಹಿತಃ ಸನ್ ಅರಂ ಕರಾಣಿ ಪರಿಚರ್ಯಾಂ ಕರವಾಣಿ. ಭವತು ಅಚೇತಯತ್ ಅಚಿತೋ ದೇವಃ ಅರ್ಯಃ. ಅರ್ಯಃ ಇತಿ ಪದಂ ಪ್ರಥಮಂ ಸ್ವೀಕ್ರಿಯತೆ. ಅರ್ಯಃ ನಾಮ ಸ್ವಾಮಿ. ತಾದೃಶಃ ಸ್ವಾಮಿ ಸಹ ದೇವಃ. ಸಹ ಏವ ದೇವಃ ಅಪಿ ದ್ಯೋತನಶೀಲ ದಾನಾದಿ ಗುಣಯುಕ್ತಃ ದೇವಃ. ಅಚಿತಃ ವಯಂ ಸರ್ವೇ ಅಜ್ಞಾನಿನಃ. ಅಚಿತ್ ನಮ ಜಡಾಃ. ಅಜಾನತಃ ಅಸ್ಮಾನ್ ಅಚೇತಯತ್ ಪ್ರಜ್ಞಾಪಯತು ಸಹ ಅಸ್ಮಾಕಂ ಬುದ್ಧಿ ಸಂಯೋಗಂ ದದಾತು. ಭಗವತ್ ಸೇವಾ ಕಾರ್ಯೇ ವಯಂ ಅಜ್ಞಾನಿನಃ ತದ್ವಿಷಯೇ ಸಹ ಚೇತಯತು ಬುದ್ಧೇ ಯೋಜನಂ ಕರೋತು ಇತಿ. ದಾಸ್ಯಂ ಅಸ್ಮಿನ್ ಮಂತ್ರೆ ಅಸ್ತಿ. ದಾಸ್ಯ ಭಾವಃ ಅತ್ರ ಪ್ರಕಟಿತಃ. ಅನಂತರಂ ಅನಂತರಂಚ ಗೃತ್ಸಂ ರಾಯೇ ಕವಿತಾರೋ ಜುನಾತಿ. ಗೃತ್ಸಂ ಸ್ತೋತಾರಂ ಗೃತ್ಸಃ ನಾಮ ಅತ್ರ ಸ್ತೋತಾಯಃ ಅಸ್ತಿ. ತಾದೃಶಂ ಸ್ತೋತಾರಂ ಕವಿತಾರಃ ಸರಿ ಕವಿತರಃ ಕ್ಷಮ್ಯತಾ ಕವಿತರಃ ಪ್ರಾಜ್ಞತರಃ ಕವಿಃ ಕವಿತರಃ ತಮಃ ಇತಿ ತತ್ರ ಡಿಗ್ರೀಸ್ ಆಫ್ ಕಂಪ್ಯಾರಿಸನ್ ಭವತಿ ಕಿಲ. ತತ್ರ ಕವಿತರಃ ಅತ್ಯಂತಂ ಪ್ರಾಜ್ಞಃ ದೇವಃ. ಏವಂ ಯದಿ ದೇವಸ್ಯ ಸೇವಾ ಕ್ರಿಯತೆ ತರ್ಹಿ ರಾಯೇ ಜುನಾತಿ. ರೈಹಿ ನಮ ಧನಂ ಧನಪ್ರಾಪ್ತ್ಯರ್ಥಂ ಜುನಾತಿ ಸಹ ಪ್ರೇರಯತು ಜುನಾತು ಇತಿ. ಅತಃ ಅಹಂ ವರುಣಾಯ ಸೇವಾಂ ಕುರ್ಯಾಂ ಯಥಾ ದಾಸಃ. ಯದಿ ಅಹಂ ವರುಣಸ್ಯ ಸೇವಾಂ ಕುರ್ಯಾಂ ತರ್ಹಿ ಅಹಂ ಧನಂ ಪ್ರಾಪ್ನುಯಾಂ ಇತಿ. ಧನಂ ಇತಿ ಶಬ್ದಸ್ಯ ಅತ್ರ ಕೇವಲಂ ವಿತ್ತಂ ಇತಿ ಸ್ವೀಕರಣೀಯಂ ಇತಿ ನಾಸ್ತಿ. ದೈವಂ ವಿತ್ತಂ ಮಾನುಷಂ ವಿತ್ತಂ ಇತಿ ದ್ವಿವಿಧಂ ಅಸ್ತಿ ಇತಿ ಭಗವದ್ಗೀತಾ ಭಾಷ್ಯೆ ಶಂಕರಾಚಾರ್ಯಃ ವದಂತಿ. ಮಾನುಷಂ ವಿತ್ತಂ ತು ಜ್ಞಾಯತೆ ಇದಂ ಸರ್ವಂ ಅವಶ್ಯಕಂ ಕ್ಯಾಶ್ ಇತ್ಯಾದಿ. ದೈವಂ ವಿತ್ತಂ ನಾಮ ಪುಣ್ಯಂ ಇತ್ಯರ್ಥ. ಅರುಳಿಲ್ಲಾರ್ಕು ಔಲಹಂ ಇಲ್ಲೈ ಪೊರುಳಿಲ್ಲಾರ್ಕು ಇವ್ವುಲಹಂ ಇಲ್ಲೈ ಇತಿ ದ್ವಿವಿಧಮಪಿ ವಿತ್ತಂ ಯತ್ ತಿರುವಳ್ಳೂರೇನ ಕಥಿತಂ. ಅತಃ ಧನಂ ಇತಿ ಶಬ್ದಸ್ಯ ಕೇವಲಂ ಧನಂ ಇತಿ ಸ್ವೀಕರ ಯತೋ ಹಿ ಪೂರ್ವತ್ರ ಶರಣಾಗತಿ ಇತ್ಯಾದಿ ಸರ್ವಂ ಉಕ್ತಮಸ್ತಿ. ಅತಃ ಪೂರ್ವತ್ರಾಪಿ ಪಾಪಾನಿ ಇತ್ಯಾದಿ ಅಪಿ ಉಕ್ತಮಸ್ತಿ. ತರ್ಹಿ ಪುಣ್ಯಂ एव दैवं वित्तम् अन्यत् यत् आर्थिकलाभः लोके आवश्यकः सोपि स्वीकरणीयः अतः राये नाम उभयविधवित्ताय देवः अस्मान् प्रेरयतु प्राप्त्यर्थम् इति अन्तिमः मन्त्रः इदानीम् अयं सु तुभ्यं वरुणस्वधावो हृदि स्तोम उपश्रितश्चिदस्तु शन्नः क्षेमे शमु योगेनो अस्तु यूयं पात स्वस्तिभिः सदा नः बहु समीचीनः पदप्रयोगः बहु सरलमपि अस्ति अयं सु तुभ्यं वरुणस्वधावः स्वधावः इति पदं पूर्वत्र आगतं पूर्वत्र स्वधावशब्दः तेजस्वी इत्यर्थकतया व्याख्यातम् अत्र स्वधावः इति शब्दस्य अन्नवान् इति सम्बोधने अन्नवन् इत्यस्ति अन्नयुक्त वरुणः एव अन्नयुक्तः हे स्वधावः वरुण हे अन्नयुक्त वरुण तुभ्यं त्वदर्थं क्रियमाणः अयम् अयम् इति पदमस्ति तुभ्यम् अयम् अयं कः एतत् सूक्तात्मकं स्तोम इति पदमस्ति तव कृते एतत् स्तोम एषः स्तोमः क्रियते स्तोमः नाम स्तोत्रम् एतत् स्तोत्रं तव कृते क्रियते किं भवेत् हृदि उपश्रितश्चित् अस्तु एतत् स्तोत्रं हृदि तव हृदये सु इति पदमस्ति सु उपश्रितः इत्यपि योजनीयं सम्यक् उपश्रितः उपगतः समवेतः अस्तु हे अन्नस्वामी वरुण तव कृते एषः स्तोमः क्रियमाणः अस्ति एषः स्तोमः भवतः हृदि सम्यक् प्राप्नोतु पूर्वत्र सः प्रश्नं पृष्टवान् अन्तर्वरुणे अहं कदा प्रविशेयम् इति तस्य सम्बन्धः अत्र अन्तिमे मन्त्रे क्रियते मम स्तो यदि पापक्षालनं क्रियते तर्हि अहं शुद्धः भवामि यः पापरहितः तस्य स्तोत्रमेव वरुणः शृणोति इति तात्पर्यम् अस्माभिः अवगन्तुं शक्यते हृदि त्वदीये हृदये सुष्ठु उपश्रितः समवेतः भवतु इति अनन्तरं तेन किं भवेत् यदि अहं भवतः हृदयं प्रविशेयं तर्हि मम किं भवति अप्राप्तस्य प्रापणं योगः यत् न प्राप्तं तस्य प्राप्तिः एव योगशब्देन उच्यते अनन्तरं प्राप्तस्य परिरक्षणं क्षेमः योगक्षेमपदमस्ति किल तस्य प्रथमम् अर्थः उच्यते योगो नाम अप्राप्तस्य प्राप्तिः क्षेमः नाम प्राप्तस्य परिरक्षणम् अप्राप्तस्य प्राप्तिः नाम प्रतिमासं वेतनप्राप्तिः क्षेमः नाम सेविङ्ग्स् मध्ये इन्वेस्ट्मेण्ट् इति सामान्य अर्थदृष्ट्या अप्राप्तस्य प्राप्तिः नाम एतावत्पर्यन्तं मम मनसि भगवद्विषये श्रद्धा नासीत् तद्विषये श्रद्धा प्राप्ता कथञ्चित् मम पापक्षालनद्वारा अनन्तरं तस्य परिरक्षणं तस्य कदाचित् उत्पन्ना इच्छा न बहवः सङ्कल्पं कुर्वन्ति अद्य अहम् एतावद् अनुष्ठानं करोमि अथवा पूजां करोमि तद् तात्कालिकी न स्यात् शाश्वती भवेत् इति मम हृदये तस्य स्थैर्यं भवतु इति तत्र इदमस्ति योगसूत्रे नव अन्तरायाः उच्यन्ते तत्र अन्ते अलब्धभूमिकत्व अनवस्थितत्वानि इति तत्र अन्तिम अन्तरायद्वयम् बहु प्रयत्नं करोमि अहम् अनुष्ठानादिकं करोमि तथापि मम समाधिस्थितिः न प्राप्यते अलब्धभूमिः एव न लभ्यते कश्चित् प्राप्नोति समाधिस्थितिं परन्तु अनवस्थितः भवति तत्र स्थिरं स्थातुं न शक्नोति अतः कस्यचित् योगः एव न भवति कस्यचित् योगः भवति परन्तु क्षेमः न भवति तद्वयमेव अलब्धभूमिकत्व अनवस्थितत्वपदेन उच्यते इति योगदृष्ट्या अपि स्वीकर्तुं शक्यते अतः योगः अत्र एवं क्षेमः एवम् अप्राप्तस्य प्राप्तिः प्राप्तस्य परिरक्षणम् एतदेव योगक्षेमपदेन उच्यते नः अस्मदीये क्षेमे शं नः क्षेमे इत्यस्ति किल, नः अस्मदीये क्षेमे शं नाम उपद्रवाणां शमनम् अस्तु, शं नः क्षेमे यत् प्राप्तं तस्य परिरक्षणकार्यं यदस्माभिः क्रियते तत्र अस्माकं शं भवतु नाम उपद्रवशमनं भवतु इति प्रार्थना। एवमेव शमु योगे उ मीन्स् आल्सो योगे अपि शम् अस्तु उपद्रवशमनं भवतु यावत्पर्यन्तं तत्र प्रतिबन्धकं भवति नाम नित्यकर्मानुष्ठानं किमर्थं कुर्वन्ति जनाः इति चेत् अस्माकं पूर्वतनपुण्यपापानुसारम् अस्माकं फलप्राप्तिः भवति परन्तु तत्र प्रतिबन्धाः उत्पद्यन्ते मध्ये मध्ये विघ्नाः भवन्ति यतोहि प्रतिदिनं वयं नानाविधपापकर्मणाम् इदं सञ्चयं कुर्वन्तः भवामः तादृशलघुलघुपापानां निवृत्तिः कथं भवति इति चेत् नित्यकर्मानुष्ठानेन प्रतिदिनं भगवत्स्मरणेन। अतः योगः वा क्षेमः वा अस्माकं डेस्टिनि मध्ये भवति तत्र प्रतिबन्धकाः भवन्ति चेत् फ्रस्ट्रेशन् अधिकं भवति जीवने दुःखम् अधिकं भवति अतः नित्यकर्मानुष्ठानं कर्तव्यम् इति वदन्ति। अतः तदेव शम् उपद्रवशमनं योगार्थम् उपद्रवशमनं क्षेमार्थमपि उपद्रवशमनं डीप् अस्ति किञ्चित् गभीराः विषयाः अत्र सन्ति सूक्ष्माः विषयाः। अस्मदीये क्षेमे रक्षणे शम् उपद्रवाणां शमनम् अस्तु योगे च नः अस्मदीये प्रापणे शमु शमनमेव अस्तु उपद्रवाणां नाम भगवतः भवतः अनुग्रहादिति शन्नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः। हे वरुणादयः देवाः भवानेव राजा किल पूर्वत्र उक्तं भवान् भवतः मन्त्रिपरिषत् या अस्ति सर्वेपि यूयं बहुवचने अस्ति हे वरुणादयः देवाः नः अस्मान् सर्वदा स्वस्तिभिः स्वस्तिभिः नाम अविनाशैः नाशः यथा नाशः न स्यात् नानाविध इच्छानां वा कामनाः वा भवन्तु प्रयत्नाः भवन्तु कस्य नाशः न भवेत् सद्विषय इच्छा भवति सत्क्रिया भवति तादृशानां स्वस्ति भवतु इति विनाशः मा भवतु तेन च पाथ रक्षत तादृशम् अस्माकं रक्षणं यूयं कुरुत इति प्रार्थना इति वसिष्ठस्य वरुणविषयिकी प्रार्थना अष्टभिः ऋग्भिः। अत्र स्थगयामः। ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।